शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नागेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चि विष्णुन्द्रसुपूजिताभ्यां विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्यां अनघं जनकं जगतां प्रथमं वरदं करशूलधरं सुलभं करुणाम्बुनिधिं कलुशापहरं प्रणमामि महेश्वरमेकमहम् अमलं कमलोद्भवगीतगुणं शमदं समदासुरनाशकरम् रमणीयरुचिं कमनीयतनुं नमसाम्ब शिवं नतपापहरं शिवं शङ्करं बन्धुरं सुन्दरेशं नटेशं गणेशं गिरीशं महेशं दिनेशेन्दुनेत्रं सुगात्रं मृडानि पतिं श्रीगिरीशं हृदा भावयामि भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवाह्लादो नादयतु महासितवपुः पञ्चेषु नाचादृतः सत्पक्षः सुमनोवनेषु स्वपुनः साक्षान्मदीये मनोराजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः सोमोत्तं सुरपरिषदां येष जीवातुरीशः पाशच्छेत्तापदयुगजुषां फुल्लमल्लीनिकाशः ध्येयो देवः प्रकटितवधूरूपवामात्मभागः श्रीशैलाग्रे कलितवसतिर्विश्वरक्षादुरीणः येणं पाणौ शिरसि तरुणोल्लासमेणाङ्कखण्डम् पार्श्वे वामे वपुषि तरुणिं दृक्षुकारुण्यलीला भूतिं फाले स्मितमपि मुखे गाङ्गमम्भः कपर्दे बिभ्रत्प्रेम्णा भुवनमखिलं श्रीगिरीशः सपायात् श्रीशैले स्वर्णशृङ्गे मणिगणरचिते कल्पवृक्षाणि शीते स्फीते सौवर्णरत्नस्फुरितनवगृहे दिव्यपीठे सुभार्हे आसीनः सोमचूडः सकरुणनयनः साङ्गनस्मेरवक्त्रः शम्भुः श्रीभ्रामरीशः प्रकटितविभवो देवता सार्वभौमः या योगिबृन्दहृदयाम्बुजराजहंसी मन्दस्मितास्तुतमुखी मधुकैटभग्नी विघ्नान्धकारतटभेदपटीयसी सा मूर्तिः करोतु कुतुकं भ्रमराम्बिकायाः कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासि फालस्थली कर्पूरद्रवमिश्रचूर्णकपुरामोदोल्लसद्वीटिका ಲೋಲಾಪಾಂಗ ತರಂಗಿತೈರಧಿಕೃಪಾಸಾರೈರ್ಸದಾನಂದಿನೀ ಶ್ರೀಶೈಲಸ್ಥಲವಾಸಿನೀ ಭಗವತೀ ಶ್ರೀಮಾತರಂ ಭಾವಯೇ.